इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। स्वातन्त्र्य दिवसस्य पूर्वसन्ध्यायाम् अद्य राष्ट्रपतिपदासीना द्रौपदी मुर्मुः राष्ट्रं सम्बोधयिष्यति। स्वातन्त्र्य दिवसस्य अवसरे आरक्षक अग्निशामक गृहरक्षक नागरिक रक्षा संशोधन सेवानां च 37,000 कर्मचारिणः वीरता सेवा पदकाभ्यां पुरस्कृताः जाताः। सर्वोच्च न्यायालयेन अद्य स्पष्टीकृतं यत् प्रत्येकं राज्यम् अधुना आकरजाधिकारेषु अवशिष्टकरं प्रत्यावर्तयितुं शक्नोतीति। राष्ट्रपतिः द्रौपदी मुर्मुः अस्मै वर्षाय ग्रीष्मकालिक अमृतोद्यानस्य उद्घाटनं राष्ट्रपतिभवने कृतवती। उद्यानमिदं सामान्यजनेभ्यः शुक्रवासरादेव उद्घाटयिष्यते। जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा इत्येषः आगामिमासे स्वपदात् त्यागपत्रं दास्यति। अपि च थाईलैण्डदेशस्य संवैधानिक न्यायालयेन प्रधानमन्त्री श्रेत्था थाबिसिन इत्येषः पदात् निरस्तीकृतः। अथ वार्ताः विस्तरेण। श्वः राष्ट्रम् 78वां स्वातन्त्र्यदिनम् आचरिष्यति। प्रधानमन्त्री नरेन्द्रमोदी दिल्ल्याः रक्तदुर्गस्थलात् स्वातन्त्र्यदिनाचरणे देशस्य नेतृत्वं करिष्यति। तत्र असौ त्रिवर्णध्वजारोहणं कृत्वा राष्ट्रं सम्बोधयिष्यति। स्वातन्त्र्यदिवसस्य पूर्वसन्ध्यायाम् अद्य राष्ट्रपतिपदासीना द्रौपदी मुर्मुः राष्ट्रं सम्बोधयिष्यति। राष्ट्रपतेः राष्ट्रसम्बोधनम् अद्य सायं 7 राष्ट्रियप्रसारणप्रणालिकां समेत्य आकाशवाणीदूरदर्शनयोः च सर्वप्रणालिकाभिः हिन्दी आंग्लमाध्यमेन च प्रसारयिष्यते। प्रादेशीयभाषामाध्यमेनापि इदं प्रसारणं सम्बोधनञ्च अद्य 9:30 सायंकाले श्रोतुं शक्यते। स्वातन्त्र्यदिनस्य अवसरे आरक्षकस्य अग्निशामकस्य गृहरक्षकस्य नागरिकरक्षायाः संशोधनसेवानाञ्च 37,000 कर्मचारिणः शौर्यसेवापदकैः च पुरस्कृताः जाताः। तेलंगाना आरक्षिबलस्य हेड कांस्टेबल इत्यस्मै चादुबू यादवाय वीरतायाः कृते राष्ट्रपतिसम्मानं प्रदत्तम्। गृहमन्त्रालयः अवदत् यत् 23,200 कर्मचारिणः वीरता पुरस्कारेण पुरस्कृताः सन्तीति। अपि च विशिष्टसेवायै 94 राष्ट्रपतिपदकेषु 75 आरक्षिसेवाभ्यः 8 अग्निशमनसेवाभ्यः 8 नागरिकसुरक्षाभ्यः गृहरक्षकसेवाभ्यश्च अथ 3 संशोधनात्मकसेवाभ्यः पुरस्काराः प्रदत्ताः। 29,700 कर्मिणः प्रशंसनीय सेवायै सम्मानिताः अभवन्। सर्वोच्च न्यायालयेन अद्य स्पष्टीकृतं यत् प्रत्येकं राज्यम् अधुना आकरज अधिकारेषु अवशिष्टकरं प्रत्यावर्तयितुं शक्नोतीति। अवधेयं वर्तते यत् 25,000 वर्षस्य अप्रैलमासस्य प्रथमदिनांकात् पूर्वं एते आकरज अधिकाराः क्रियान्विताः न जाताः। शीर्ष न्यायालयेन जुलाई मासस्य 25 दिने अयमादेशः प्रदत्तः यत् राज्यानां पार्श्वे तादृशी शक्तिः वर्तते यया तानि राज्यानि आकरजाधिकारेषु करं प्रभावीकर्तुं शक्नुवन्तीति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सम्मेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अस्मै वर्षाय ग्रीष्मकालिक अमृतोद्यानस्य उद्घाटनं राष्ट्रपतिभवने कृतवती। उद्यानमिदं जनसामान्येभ्यः शुक्रवासरात् सितम्बर मासस्य पञ्चदश दिनांक पर्यन्ताय उद्घाटितं भविष्यति। अत्र बालानां मनोरञ्जनाय विभिन्नानि उपकरणान्यपि स्थापितानि सन्ति। एकोनत्रिंशदगस्ते क्रीडादिवसावसरे अमृतोद्यानं विशेषतः क्रीडकेभ्यः बालेभ्यः विद्यालयीय शिक्षकेभ्यश्च उद्घाटितं स्थास्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य हर घर तिरंगेति अभियानान्तर्गतं स्वातन्त्र्यदिवसावसरे नवदिल्ल्याः स्वकीये गृहे त्रिवर्णध्वजम् उत्तोलितवान्। एकस्मिन् सामाजिक प्रसारतन्त्रजाले प्रसारितसन्देशे श्रीशाहः उक्तवान् यत् स्वगृहे राष्ट्रध्वजं समुत्तोल्य वीरबलिदातृभ्यः आदरभावाः समर्पितव्याः। येषां सर्वस्वबलिदानेन अस्माभिः स्वातन्त्र्यसुखं लब्धम्। अभियानमिदं श्वस्तनं यावत् प्रचलिष्यति, यत्र जनाः प्रतिगृहं राष्ट्रध्वजसमुत्तोल्य व्यवफलकेषु स्वकीयानि छायाचित्राणि प्रतिस्थापयिष्यन्ति। बीआरटीएफ इति विशिष्टोपसैन्य बलदलेन स्वस्तिक परियोजनान्तर्गतं बृहत्परिमापे एक पेड़ मा के नाम इत्यभियानान्तर्गतं सिक्किम प्रदेशे वृक्षारोपणाभियानं परिचालितमस्ति। अभियानमिदं स्वतंत्रता दिवसोपलक्ष्ये द्रुततया समायोज्यते। विशेषतः अभियानस्यास्य सघनता ईशान्य सिक्किमे चीनदेशस्य सीमायाञ्च आधिक्येन दृश्यते। अद्य विभाचन विभीषिका स्मृति दिवसो विद्यते। अयं दिवसः 47-19 वर्षस्य विभाजन समये विस्थापितानां प्रवासीनां च जनानां स्मरणे आमान्यते। अत्रावसरे प्रधानमन्त्री नरेन्द्र मोदी एकेन सामाजिक सन्देशेन तान् असंख्यजनान् स्मृतवान्, ये विभाजनावधौ पीडिताः प्रभाविताश्च जाताः। अवधेयं वर्तते यत् प्रतिवर्षं अगस्तमासस्य 14 दिनांके प्रशासनेन 21-2000 वर्षे विभाजन विभीषिका दिवसत्वेन मानयितुं निर्णयो निर्णीतः अस्ति। जम्मू कश्मीर राज्ये सेनया सह आततायिनां जाते एकस्मिन् संघट्टे एकः सेनानायकः वीरगतिम् अलभत्। चत्वारश्च क्रूरकर्माणः आततायिनः यमलोकं गोलिकाभिः प्रेषिताः। संघट्टोऽयं डोडा जनपदे अभवत्। आकाशवाण्याः वार्ताहरेण प्रोक्तं यत् संघट्टेऽस्मिन् कतिचन सामान्यनागरिकाः व्रणिताः सन्तीति। केन्द्रीय कौशल विकास मन्त्री जयन्त चौधरी इत्यसौ उक्तवान् यत् प्रौद्योगिकीनाम् अथ च कृत्रिम मेधायाः प्रारम्भादेव देशे राष्ट्रिय प्रौद्योगिक संस्थानाय साहाय्यं मेलिष्यति। असौ अग्रे अवोचत् यत् कृत्रिम मेधायाः परिवर्तनकारिण्याः शक्तेः उपयोगाय छात्राणां सज्जीकरणे एकां महत्वपूर्ण भूमिकां निर्वक्ष्यतीति। आगामिवर्षाय हज यात्रायै आवेदनानां स्वीकृतयः समारब्धाः। जनाः सितम्बर मासस्य 9 दिनांकं यावत् आवेदनं कर्तुं शक्ष्यन्ति। अल्पसंख्यक सम्बद्ध मन्त्रिणा किरेन रिजिजू इत्यनेन, विभागस्य राज्यमन्त्रिणा जॉर्ज कुरियन इत्यनेन साकं प्रोक्तं यत् सऊदी अरब देशेन भारताय पादोन 2,00,000 जनेभ्यः हज यात्रानुमतिः दत्ता अस्ति इति। आवेदनानि हज सुविधा एप इत्यस्मिन् सन्ति आकारिताः। जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा इत्येषः अद्य वार्ताहरान् समाहूय उक्तवान् यत् सः पुनर्निर्वाचने न प्रातिभाग्यं करिष्यतीति। तेन अग्रे एतदपि उक्तं यत् लिबरल डेमोक्रेटिक पार्टीति दलस्य पुनरारम्भस्य आवश्यकता अस्ति। 21-2000 वर्षात् प्रधानमन्त्रिपदारूढस्य किशिदा इत्यस्य निर्णयेन दलकार्यकर्तारः प्रशंसकाश्च आश्चर्यचकिताः सन्ति। थाईलैंड देशस्य सांविधानिकाभिकरणेन प्रधानमन्त्री स्रेत्था थावी सिन इत्येषः पदात् निरस्तीकृतः। यतो हि प्रधानमंत्री कार्यालयेन 16 वर्ष पूर्व कारादंडवास प्राप्त अधिवक्ता केन्द्रीय मंत्रिमंडले स्वीकृत आसीत् इति वार्ताः।